इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य आभासीय माध्यमेन विभिन्नानां रेलवे विकासात्मक परियोजनानां उद्घाटनम् आधारशिलास्थापनं च विधास्यति। क्षेत्रे सम्पर्कम् इतोपि संवर्धयितुं प्रमुखस्य पदक्षेपस्य अन्तर्गतं प्रधानमन्त्री नूतनस्य जम्मू रेलविभागस्य उद्घाटनं करिष्यति। सः तेलंगाना राज्ये चरलापल्ली न्यू टर्मिनल इति स्थात्रस्यापि उद्घाटनं करिष्यति, तथा च ईस्ट कोस्ट इति पूर्वतट रेलवे इत्यस्य रायगढ़ रेलवे विभाग भवनस्य आधारशिलाम् अपि स्थापयिष्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः नवदिल्ल्याः रोहिणी क्षेत्रे केन्द्रीयायुर्वेद शोध संस्थायाः नूतन भवनस्य शिलान्यासः आभासीय माध्यमेन कृतः। नूतनम् अत्याधुनिकं भवनं प्रायः 85+ शतकोटिरूप्यकाणां व्ययेन निर्मितं भविष्यति। 2.92 एकड़परिमिते क्षेत्रे परम्परां नवीनतां च संयोजयिष्यति। समग्रचिकित्सायाः विशेषचिकित्सालयानां कौशलविकासाय च नूतनावकाशान् प्रदास्यति। श्रीमोदी स्वसम्बोधने निर्धनानाम् अत्यन्तं निर्धनानां च कृते स्वास्थ्यसेवाः सुलभं कर्तुं प्रशासनस्य प्रतिबद्धतां बोधितवान्। राष्ट्रियसुरक्षापरामर्शदः अजीत डोवालः अद्य नवदिल्ल्यां स्वीयेन अमेरिकादेशीयेन समकक्षेण जेक सुलिवन इत्यनेन सह मेलनं करिष्यति। राष्ट्रियसुरक्षापरामर्शदौ उपवेशनस्य समये गभीर उदीयमान प्रौद्योगिकी ICET इत्यादिभिः द्विपक्षीय विषयैः सह सम्बद्धाः विषयाः च विस्तृतरूपेण चर्चिताः भविष्यन्ति। गतसप्ताहे विदेशमन्त्रालयस्य प्रवक्ता रणधीर जयशवालः वार्ताहरान् अवदत् यत् भारतस्य अमेरिकादेशस्य च सम्बन्धः विस्तृतः अस्ति, यत्र उभयोः पक्षयोः मध्ये निरन्तरं विस्तृतं च चर्चा भवति। वायुगुणवत्ताप्रबन्धनायोगस्य ग्रेडेड प्रतिक्रिया कार्यायोजना उपसमित्या तत्कालप्रभावेण सम्पूर्णे राष्ट्रिय राजधानी क्षेत्रे संशोधितस्य ग्रैप इत्यस्य तृतीयचरणं निरस्तीकृतमस्ति, परञ्च द्वितीयचरणस्य प्रथमचरणस्य च अन्तर्गतं सर्वाणि कार्याणि यथावदेव प्रचलन्ति। प्रशासनम् अवोचत् यत् अंकीय वैयक्तिक दत्तांश संरक्षण नियमानां प्रारूपस्य उद्देश्यं नागरिकाणां वैयक्तिक दत्तांशस्य संरक्षणार्थम् अधिकाराणां रक्षणमस्ति। एते नियमाः 23+2000 वर्षस्य दत्तांश संरक्षण अधिनियमस्य कार्यान्वयनं कर्तुं प्रयतन्ते, यत् अंकीय वैयक्तिक दत्तांशस्य संरक्षणार्थं दृढसंरचनां निर्मातुं भारतस्य प्रतिबद्धतायाः अनुरूपम् अस्ति। स्क्वैश क्रीडायां भारतस्य अनाहत सिंहः इंग्लैण्डदेशस्य बर्मिंघम नगरे ब्रिटिश जूनियर ओपन इत्येतस्याः स्पर्धायाः निर्णायकचक्रे प्रविष्टवती। भारतीय सुपर लीग फुटबॉल क्रीडायां केरल ब्लास्टर्स क्लब इत्यनेन दलेन गतरात्रौ नवदिल्ल्याः जवाहरलाल नेहरू क्रीडांगणे पंजाब FC क्लब इत्येतं दलं 1-0 इत्यंकान्तरालेन पराजितम्। इति वार्ताः।